शान्तिमन्त्रः ध्यानश्लोकः. सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्तिश्शान्तिश्शान्तिः. हरिः ओं श्रीगुरुभ्यो नमः. हरिः ओम्. ओके, लेट्स् पुस्तकं डिटेल्स् ओके. डिड् वी हेव् एनी क्वेश्चन् इन् दिस्? I know I was going to say Shwasiti, right? We were talking about Shwasiti and there was some other question. The Dharmyam. The Dharmyam also I thought somewhere. It's the Taddita. It's a Taddita Pratyaya. And I wrote it somewhere now. I don't know. Anyway. Dharmyam. I didn't...
Dharmyam
is... Dharmasya Yogyam iti va. I thought I checked it, but now I was going to say these shlokas. I forgot. Let me see. Dharmya, here is where I saw. In the Kosha Anvesha. Dharmya, it says, Dharma, Dharmata, Dharmadana Petaha. Dharmya. Yat Pratyaya. This is
Tadya Pratyaya.
Not the tavya tavyat yat. This is the not the kritya pratyaya. This is the tadita pratyaya. So dharmya, it says vishesha nignam. Okay, I will look into this more, Bhagini. I didn't look into it after that. Anyway, it will say it in English too. It's a consistent with law. Yeah, that's what you said, right, Bhagini? That's what Punima Bhagini said, consistent with law, duty, or religion. Okay, dharmya. Astu. Patam prati gaccha mahabha. Adhya, nutana patam arambam kurmaha. Did we finish all this, Bhagini? Yes, I think that's where the dharmyam came, right? In the 10th, in the last sentence, Arjuna Tvam dharmyam yuddham kuryaha no chet papam avapsyasi. Okay. Yatyatam yuhu yaha yatam yata yaha. So, Madhyama Purusha Eka Vachanam. Kuryaha. Astu. Chet no chet. These are all you'll be using it anyway. Yavat tavat. Okay. This yadi tarhi astu. Arambam kurmaha. Astu. Padani bhagini arambam karotu bhagini.
Dashama swamati. दशमः त्वम् असि. दशमः त्वम् असि. सप्तविभक्त्यः
असि वदतु. असि इत्यस्य विवरणं वदतु.
अस् दातु भगिनि. असि मध्यमपुरुष एकवचनं.
मध्यमपुरुष एकवचनं.
एकवचनं. दशमः त्वम् असि. सप्तमी विभक्त्या
इट्स् नाट् सप्तमी भगिनी. सप्त विभक्तयः.
सप्त विभक्तयः. ओके ओके. दशमः त्वम् असि. उच्चैः पठत. कस्यचित् गुरोः आश्रमः. गुरुः उन्नतस्थाने उपविश्य ध्यानमग्नः अस्ति. दशशिष्याः प्रविशन्ति. सो कस्यचित् एक आश्रम अस्ति, कस्यचित् गुरोः अत्र अस्ति. गुरुः ध्यानं करोति, उन्नतस्थाने उपविशति, तदनन्तरं ध्यानमपि करोति. तस्य गुरोः दशशिष्याः अस्ति, ते सर्वाः प्रविष्टाः कुर्वन्तः शिष्याः प्रवेशं कुर्वन्तः सारि शिष्याः आचार्य नमो नमः. गुरुः नेत्रे उन्मील्य प्रियशिष्याः सर्वे आगताः किम्? शिष्याः आं गुरु, वयं सर्वेपि आगताः. गुरुः समीचीनं शिष्याः, अद्य अनधयनम् अस्ति, भवतां पाठः नास्ति. प्रथमः शिष्यः सन्तोषेण, सत्यं वा? गुरुः आम्, परन्तु अन्यदेकं कार्यं सूचयामि. अन्यत् एकं कार्यं सूचयामि.
यावत् भगिनि तावत् तावत्
शिष्याः प्रवेशं शिष्याः आचार्यं वदति, आचार्यं नमस्करति. प्रथमम् आचार्यं नमस्करति, अतः शिष्याः आचार्य नमो नमः अत्र वदति, ऐ मीन् अतः वदति. सो आचार्य अत्र सम्बोधनः, आचार्य शब्दस्य सम्बोधनरूपं नमो नमः. सो सो नमः नमः दे आर् आचार्य वद लैक् वन्दनं कुर्वतः. गुरुः अपि नेत्रे उन्मील हि ओपन्स् रैस् उद्घट
उन्मील ओपनिङ्ग्
ओपनिङ्ग् वाट् इस् द अदर् वर्ड् मन् उद्घाटयति आल्सो वि केन् से रे नेत्रे उद्घाटयति आल्सो वि केन् से रे
उद्घाटयति इति इट्स् नो इट्स् लैक् ब्रिङ्गिङ्ग् रैट् उद्घाटयति तत् करपत्रम् उद्घाटयतु देन् ऐ केन् से देट्
लैक् ओपन् द डोर्
द्वारम् उद्घाटयति इति वक्तुं शक्यते.
ब्रिङ्गिङ्ग् संथिङ्ग् उद्घाटयति द्वारम् उद्घाटयतु वा
ओके
बट् नेत्रं उद्घाटयतु ऐ नेवर् हर्ड् दट् भगिनि उन्मील्य इस् वाट्
नेत्रस्य विषये नागच्छति द्वारम्
but generally okay. I've heard that that udghatayatu for karapatra bagini karapatra
for any opening that's what open the book like I've heard that so I thought maybe you can say even for opening your eyes
opening for dwara it will be dwara they will say but not for eyes
neither unmilya okay.
So unmilyati so guruhu netre unmilyati iti samyakalu
गुरुः नेत्रम् उन्मीलयति
उन्मीलयति ओके
ऐ थिङ्क् उन्मीलयति
सर्वे शिष्याः आगतवन्तः खलु इति पृच्छति प्रियशिष्याः एवमपि सम्बोधनः बहुवचनरूपं सर्वे आगताः किं सो सर्वे अत्र सर्वनामशब्दः बहुवचनम् आगताः इत् स प्रत्यय एण्ड् किम् आफ् कोर्स् खलु अस्य अत्र भवति शिष्याः शिष्याः वदन्ति हाम् आगच्छामः इति वदन्ति इति वदन्ति आं गुरु आं वयं सर्वे आगतवन्तः आगच्छन्ति इति वदन्ति गुरुः samichinam shishyah so samichinam is good shishyah api sambodhana rupam asti adya anadhyayanam asti bhavatam patah nasti so adya so it's anadhyayanam so it's where you cannot do the practice of the studies basically they have some days where they cannot study so anadhyayanam asti so we can't today we cannot study वदति हा भवतां पाठः नास्ति अतः कारणेन अद्य पाठं न पठन्ति इति वदति सो प्रथमशिष्या सन्तोषेण भवति सन्तोषं भवति सत्यम् इति सत्यं वा सो इस् इस् ट्रू इस् वाट् इस् आस्किङ्ग् गुरुः आम् परन्तु अन्यत् एकं कार्यं सूचयामि सो अत्र समासः अस्ति अन्यत् एकम् इति भवति सो गुरुः
दट्स् नाट् समासः भगिनि जस्ट् अन्यत् सन्धि अन्यत् इति अन्यत् सन्धि एव
सन्धि एव सोरि एक परन्तु अन्य अन्यकार्यम् इति अस्ति अन्यकार्यम् अस्ति इति इति वदति एतत् कार्यं केन कः कार्यम् इति सूचयति इति अपि वदति सो
कार्यं किम् इति अग्रे अग्रे अस्ति अग्रे पूर्णिमा भगिनी पठतु भगिनी धन्यवादः भगिनी
धन्यवादः
भगिनी भगिनी धन्यवादः अग्रे पूर्णिमा भगिनी पठतु द्वितीयः
उदाहरणं श्रुणोतु द्वितीयः किं तत् कुरो गुरो गुरुः वदामि सावधानं शृण्वन्तो पार्श्वस्थे ग्रामे अद्य रथोत्सवः प्रचलति भवन्तः सर्वे तत्र गत्वा रथोत्सवं दृष्ट्वा सायङ्काले प्रत्यागच्छन्तु वदामि अहं वदामि उत्तमपक्ष एकं सावधानं शृण्वन्तु प्रथमपुरुष बहुवचन शृणो लोट् लोट्लकार भवान् सर्वे अपि अहं सावधानेन वदामि भवन्तः सर्वे शृण्वन्तु पार्श्वस्थे ग्रामे इत्युक्ते नैबरिङ्ग् विलेज् पार्श्वस्थे ग्रामे अद्य रथोत्सवः प्रचलति अद्य रथोत्सवः अस्ति भवन्तः सर्वे तत्र गत्वा रथोत्सवं दृष्ट्वा सायङ्काले प्रत्यागच्छन्तु तत्र भवन्तः सर्वे भवान् भवन्तौ भवन्तः सर्वे प्रथमाविभक्ति प्रथमपुरुषवचन सर्वे तत्र गत्वा सान्ताय गं दातु रथोत्सवं दृष्ट्वा रथोत्सवं द्वितीयविभक्ति रथोत्सवः पुल्लिङ्ग रथोत्सवं द्वितीयविभक्ति एकवचनं दृष्ट्वा दृष्टातु सान्ताय सायङ्काले प्रत्यागच्छन्तु सायङ्काले पुनर आगच्छन्तु प्रत्यागच्छन्तु इति वदति गुरुः तृतीया सन्तोषेण अहो भाग्यं महान् सन्तोषः वयं सर्वे इदानीमेव गच्छामः तृतीयः वदति सन्तोषम् अनुभवति तृतीयः सन्तोषम् अनुभूय अहो अस्माकं भाग्यम् अस्ति वयं सर्वे गच्छामः महान् सन्तोषः अभवत् इति उक्त्वा इदानीमेव गच्छामः इति वदति सर्वेपि इदानीमेव गच्छामः उत्तमपुरुष भवच सर्वे गच्छामः सज्जा भवन्ति अग्रेपि पठामि वा
भगिनि पठतु
अग्रे अपि पठामि वा परन्तु बहु जागरूकतया गन्तव्यं यतः अहं भवतां बुद्धिमत्तां जानामि परन्तु अव्यय बहु जागरूकता इति स्त्रीलिङ्गं भवति जागरूकतया इति तृतीयविभक्ति एकवचन जागरूक भवतु गन्तव्यम् इति यु शुड् गो वेरि केर्फुलि गन्तव्यम् इति तव्यत् प्रत्यय यतः किम् इत्युक्ते बिफोर् बिकास् अहं भवतां बुद्धिमत्तां जानामि, अहं जानामि भवन्तः सर्वे बुद्धिमत्ताः इति इति सः हास्येन वदति वदति गुरुः. ते सर्वे बहु बुद्धिमत्ताः न भवन्ति, अतः गुरुः तथा उच्यते.
अस्तु, धन्यवादः भगिनि.
धन्यवादः.
अग्रे अग्रे चान्दिनी भगिनी पठतु. चतुर्थः.
चतुर्थः, वयं बहु जागरूकः भवाम गुरोः. गुरो गुरु भवतु, सर्वे मिलित्वा एव गच्छन्तु. पञ्चम, तथैव अस्तु गुरु. सो द फोर्थ पर्सन सेड या विद ग्रेट जागरूकः मीन्स लाइक अलर्टनेस. वी विल गो गुरु. गुरु सेज ओके, सर्वे मिलित्वा त्वापत्र त्वापत्रय एव गच्छन्तु. एवरीबडी मीट एंड देन गो. पञ्चमः, तथैव
गच्छन्तु वदतु. गच्छन्तु विवरणं वदतु.
गच्छन्तु लोट् लकार.
पुरुष किं प्रयोग किं
पुरुष प्रथमपुरुष बहुवचनं. गच्छतु, गच्छतां, गच्छन्तु, गच्छतात्, गच्छतां, गच्छत, गच्छामि, गच्छतु,
तामन्तु. तात् अपि वदति भवती उक्तवती. ओके, गच्छतु, गच्छतात्, गच्छतां, गच्छन्तु, गच्छ, गच्छतात्,
गच्छतं, गच्छत, गच्छामि, गच्छावः, गच्छाम.
नो, नाट् नाट् गच्छावः भगिनि. गच्छानि, गच्छाव, गच्छाम,
गच्छाव, गच्छाम.
भवती विधिलिङ्ग् वदति जानाति वा? गम् धातु, परस्मैपदी, कर्तरिप्रयोग, विधिलिङ्ग् प्रयत्नं करोति वा? इति तम् इयुः, रैट्? गच्छेत्, गच्छेत्, गच्छेताम्, गच्छेयुः. कोऽपि वक्तुं शक्नोति वा?
वदामि भगिनि. गच्छेत्, गच्छेतां, गच्छेयुः, गच्छेः, गच्छेतं, गच्छेत, गच्छेयं, गच्छेव, गच्छेम.
वण्डर्फुल्, या, उत्तमं भगिनि. Chandini Bhagini, either you can remember the whole form for one dhatu, or it is in, we generally studied the endings Bhagini. Iti tangi yuhu, ihi itam ita.
Vidiling, I don't know, but I will study it for next time.
Yeah, yeah. Because before this book is over, we have to know the Vidiling forms also.
Okay.
You may not be able to say immediately, but then once you remember the endings, then you can slowly add to it.
Yes.
Yit, ikara is asti in all the nine pratyayas for the vidiling. So then you have to, it will all become the gut, like a gut becomes gachet.
Okay. Okay.
Anyway.
I will read it up.
Gam dhatu, karmani rupam vadatu, karmani lati rupam vadatu.
गम् धातु
कर्मणि, कर्मणि, नो नो भगिनि, गम् धातु कर्मणि रूपं लटि,
लोट् लकार,
नो नो लटि, लटि
लट्
लटि इस् ईज़ि, रैट्? कर्मणि, बट् कर्मणि फार्म् द कर्मणि अण्ड् देन् यु आल् नो कर्मणि, रैट्? गच्छतु, गच्छतां, गच्छन्तु, दोस् आर् आल् कर्तरिप्रयोग, रैट्?
गच्छतु, गच्छन्त,
गच्छतां, गच्छन्तु, दे आर् आल् कर्तरि प्रयोग, रैट्?
गच्छ, गच्छ, गच्छतां, गच्छत, गच्छानि,
गच्छाव, गच्छाम, दस् आर् आल् कर्तरि प्रयोग लोट्. कर्मणि प्रयोग लटि, लटि एव ऐ एम् आस्किङ्ग्. ट्रै इट् भगिनि. Karmani Prayoga, how do you form the Karmani Prayoga? You take the Dhatu, right? Dhatu kim iti chintanam. Anantaram yakaraha yojaniyam. Anantaram ka atmanepati pratyaya eva, right? Karmani Prayoga ityukte, you have to think about the Dhatu. Dhatu kim.
Yes.
Anantaram yakara yojaniyam. Right? Yakara yes. should be added. And then do the Atmanepati Pratyaya. But now it's only Lati. Lati is easy, Atmanepati, right? So, yes. Gam Dhatu Vadatu? Gam? Dhatu Gam?
Dhatu Gam?
Yakaraha Yojaniyam?
I'm sorry, I don't know this. Is it Gachatam Gachetam?
No, Bhagini. Gam Dhatu. Anantaram, you add the yakara for the karmani. And then the lati, atmanepati, right? Lati,
atmanepati. Karmani rupam, gita sopanam, dve bhage api.
Oh, dvitiya bhage eva asti ba. Oh, astu, astu. I didn't know that.
Uttama bhage nasti bhagini.
Oh, astu. Okay. But anyway, then let me finish that. Let's do that. Any karmani bhagini, karmani rupam ityukte like gum, take the dhatu, add the yakara, and then you add the lati atmanepati. Any dhatu, you will only add atmanepati for karmani. Karmani means karma eva pradhanam bhavati. Karma suchayati. Ramaha sitam pashyati. Rama sees Sita, right?
Uh-huh.
Rama sees Sita, Ramaha Sitam Pashyati. Pashyati ityanena Ramaha Karta Uktam Bhavati. Right? Pashyati, the ti ityanena Karta Uktam Bhavati. That's why it's Kartari Prayoga. Okay?
It would be Gachami, Gachavaha.
No, let's just finish this sentence. I'll do the Karmani Prayoga.
Okay.
But I'm just giving you what is meant by Kartari, what is meant by Karmani, right?
Yes.
So, Ramaha Sitam Pashyati iti Drish Dhatutaha Pashyati iti Rupam Siddhyati for Kartari Prayoga. Kartari Prayoga means it indicates Karta, the Dhatu. The ti pratyaya indicates the karta. So, karta will be in Prathama Vibhakti then. Ramaha Pashyati. Ramaha
so Karoti.
Ramaha Vadati. Right? Ramaha Vadati. Yes. Ramaha Patati. Ramaha Karoti. Ramaha Vadati. Ramaha Pashyati. Right? So, yes. Pashyati, the ti pratyaya ityanena karta uktam bhavati. Ramaha Sitam Pashyati. Ramaha Sitam Pashyati. Rama sees what? Rama sees who? Sita. So Ramaha Sitam Pashyati. Sitam iti dvitiya vibhakti atra. Dvitiya iti karma padam. Karma padam, what Rama, the action is seeing. With that action of seeing, what does he get? Whom does he see? That phala. Is the karma.
Sita.
He sees Sita. The phala, the result is seeing Sita. So the Sita iti phalam, that phalam krite dvitiya vibhakti prayogam bhavati, Sitam iti bhavati. Ramaha Sitam Pashyati. Ramaha Sitam Pashyati. Pashyati ityanena Ramaha uktam bhavati ityanena Ramaha iti prathama vibhakti bhavati. Sita iti Sitam iti pashyati ityanena phala karma eva bhavati. Tat karanena prathama vibhakti nasti tat dvitiya vibhakti jayate tat krite. Now, if you want to say Sita is seen by Rama. Sita is seen by Rama. Sita is seen iti karmani prayoga, right? Karmani prayoga means passive voice. active voice means the kartari prayoga is active voice. The Rama sees the any person does something, then it is kartari voice. Now now if I say Sita is seen by Rama, right?
Yes.
Now now what we are the importance is given to Sita. Now Sita is seen. What is seen, that object, that karma padam is the main thing, right? Sita is seen, yes, by Rama. So is seen, when you translate it, I am just making it into English. I shouldn't be saying this all in English, but if I want to say it as karmani prayoga, then I will take the dhatu. Pashyati ityasya dhatu kim?
Drishtatu.
Ah, drishtatu. So take the dhatu drish, add the yakara, drishya, and then you want the prathama purusha ekavachanam, drishyate. Okay. Sita is seen. Sita is seen. Now, Sita is important. So Sita gets the prathama vibhakti. Prathama vibhakti, Sita ityasya krite prathama vibhakti kim?
Sita is, yes, Sita drishti, drishati, pashyati.
No, Sita is seen, karmani prayoga, so is seen is what we are saying, drishyate.
Is seen
drishyate, is the... Sita is seen, so now Sita will be in prathama vibhakti. The drishyate
Sita
is yanena,
bagini,
yeah, Chandini Bhagini. Is seen, drishyate, drishyate ityanena, Sita eva indicated. Sita, drishyate ityanena, Sita is going to be indicated. So Sita iti prathama vibhakti. Sita iti previously it was karma padam. Now Sita is going to be in prathama vibhakti. Sita ityasya prathama vibhakti, Sita eva. So Sita drishyate. Sita drishyate tells you Sita is seen. Sita is seen by Rama, Ramena. Ramena Sita drishyate. So drishyate, drishyate, drishyante, drishyase, drishyate, drishyadve, drishye, drishyavahe, drishyamahe. That's all. So I didn't know, Bhagini, that you all didn't do karmani. I assumed you all did. Sorry. But having started it, I couldn't stop it. But the main thing that I want you to get the thing is by titaha, antisitaha, tamivaha, mahada, karta is indicated. By karmani prayoga, we say the karma is going to be in prathama vibhakti. That's the main thing for you, for the take home thing. For the karmani prayoga, karma will be in prathama vibhakti.
It's a passive voice.
Tata eva, tha pratyaya api, karma eva suchayati. Tha pratyaya, sarve agataha kim? Sarve agataha kim? Agataha. Anyway, I don't want to start the tha pratyaya and karma uktam bhavati and all that is all in a different level. But then having started it, I just wanted to finish it. I was going to ask at that time, Bhagini, agataha ityukte kim, I mean that he was saying tha pratyaya ityanena kim suchayati iti chet karma patam, sarve agataha kim. Anyway, tha pratyaya iti is bhutakala, bhutakala as well as ta pratyayena sada karma eva suchayati, karma padam will be in prathama vibhakti. Kartari prayoga, karta will be indicated by the titaha, so it, karta will be in prathama vibhakti. Anyway, that is another level of saying it, Bhagini, but just wanted to bring it to attention. That's all.
Bhagini, sorry. So agataha sta prati also saying it's karmani.
So yeah.
But sarve agataha, right? सर्वे बहुवचनं प्रथमाविभक्ति ओन्लि रैट्
या प्रथमाविभक्ति आगताः इत्युक्ते आगताः इस् इण्डिकेटिङ्ग् द कर्म कर्म एव सूचयति सर्वे इस् द कर्म कर्मपदम् आगताः इति आगताः इति पदेन किं सूचयति
बट् सर्वान् विल् बि द कर्मपदतु
कर्तरि एव किमित्युक्ते भगिनी गत्यर्थकधातु अस्ति चेत् कर्तरि प्रयोगे अपि भवति
धातु केन् कम् इन् कर्तरि प्रयोग आल्सो या बट् सर्वे आगताः किं या गत्यर्थकधातु अकर्मकधातु स्लिश् शीङ् देर् आर् सर्टन् धातु दट् केन् कम् इन् कर्तरि प्रयोग सर्वे आगताः किं हेव् आल् कम् या यु केन् हियर् अत्र कर्तरि प्रयोग
बट्
या या कर्तरि प्रयोग आल्सो ऐ शुण्ट् हेव् सेड् देट् फर् द आगताः एनिवे सम्वेर् एल्स् ऐ थाट् इस् इट्स् showing the karma bhavatam patah nasti no somewhere else I was anyway bagini yeah, for the gatyartaka dhatu kartari can be indicated kartari can be in prathama vibhakti kartari prayoga api bhavati parantu yeah bhutakale asti anyway tha pratyaya is very very nice bagini it has lot of interesting features astu bagini chandini bagini patatu bagini sari bagini we went on a tangent
swagatam tathapi
wait okay guruhu
guruhu swagatam tathapi etesham mandamati naam vishaye इतोपि मम विश्वासः नास्ति
अतः एतेषां मन्दमतीनाम् ओके
अतः एवं करोमि प्रकाशः सर्वे पङ्क्तिशः तिष्ठन्तु
भगिनी वदतु भगिनी
शिष्य तिष्ठन्ति गुरु गणयति एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश पश्यन्तु भवन्तः दशजनाः सन्ति मध्ये मध्ये परिशीलयन्तु सर्वे आगताः आगताः वा कोऽपि च्युत् वा इति
च्युतः कोऽपि च्युतः वा इति
कोऽपि च्युतः वा इति
च्युतः ऐ गेस् लास्ट् ऐ डोण्ट् नो
षष्ठः अवश्यं परिशीलयामः गुरो वयं गच्छामः गुरु शुभं भवतु गुरु
वदतु भगिनि तावत् वदतु
स्वागतं सो ग्रीटिङ्ग् देम्
स्वागतं भगिनि स्वागतं हि सेयिङ्ग् टेलिङ्ग् हिम्सेल्फ्
हि इस् टेलिङ्ग् हिम्सेल्फ् दट् इवन् देन् डल् थिङ्किङ्ग् मन्दमतिना विषय सब्जेक्ट्स् इतोपि मम विश्वासः नास्ति ऐ डोण्ट् हेव् एनी केरिङ्ग् आर् फेत् फार् द टापिक्स्
नाट् केरिङ्ग् ऐ मीन् he is worried about their taking care of themselves right so mama vishwasah I cannot trust these people to take care of themselves so let me do it this way atah evam karomi tatapi etesham mantamatinam vishaye itopi mama vishwasah nasti etesham mantamatinam vibhakti kim
careless
एतेषाम्
एतेषाम् एण्ड् मन्दमतीनाम् आर् द्वितीय
द्वितीय वा एतेषां मन्दमतीनां
नो षष्टि मन्दमतीनां षष्टि
मन्दमतीनां षष्टि एतेषाम् एतेषामपि षष्टि भगिनि एतत् वदतु एतस्य एतयोः एतेषां खलु ओके एतेषाम् अपि षष्ठी भगिनी एतत् प्रातिपदिकम् एतस्य एतयोः एतेषाम् एतेषां मन्तमतीनां विषये तथापि एतेषां मन्तमतीनां विषये इतोपि मम विश्वासः नास्ति अतः एवं करोमि ओके वदतु भगिनि
सर्वे पङ्क्तिशः तिष्ठन्तु मीन्स् एव्रिबडि सिट् डौन् पङ्क्तिशः मीन्स् इन् अ रो इन् अ लैन् पङ्क्ति then he all the students sits and the teacher counts and he counts up till 10 see now there are 10 people here madhe madhe parishilayantu sarve then he tells them to come sarve agatah kopi what is the meaning of
tutaka you can guess there right मध्ये मध्ये परिशीलयन्तु मेक् शुवर् दट् देर् आर् टेन् पीपल् सर्वे आगताः वा कोऽपि च्युतः वा इफ् एनी पर्सन् इस् लास्ट् इफ् एनी पर्सन् डिड् नाट् जायिन् इस् लागिङ्ग् बिहैण्ड् आर् लास्ट् आर् गान् आर्
सिक्स् पर्सन् सेस् अवश्यं शोलि वि विल् चेक् गुरु वयं गच्छामः ऐ एम् गोयिङ्ग् वि आर् गोयिङ्ग् then shubham bhavatu so it's like something like take care or something go with blessings then the teacher goes then all the students they are
ishyaha santoshena nrityantah
they are dancing with joy anya syam dishi dishi gachanti and they go in another anya sam dishi they go away in another direction
dishi seventh case saptami vibhakti anya syam api dish iti strilinga praty strilinga ityanena anya syam leklatayam अन्यस्यां दिशि गच्छन्ति गच्छन्ति इत्यनेन शिष्याः उक्तं भवति ओके शिष्याः सन्तोषेण नृत्यन्तः अन्यस्यां दिशि गच्छन्ति धन्यवादः भगिनी
धन्यवादः
अग्रे पद्मजा भगिनी पठतु
द्वितीयं दृश्यं प्रथमः भोः सर्वे शीघ्रम् आगच्छन्तु नो चेत् विलम्बः भवति भोः इस् सम्बोधन सर्वे प्रथमा एकवचनं शीघ्रम् आगच्छन्तु शीघ्रं शीघ्रम्
अव्यय ऐ थिङ्क्
ओके
ऐ थिङ्क् सर्वे शीघ्रम् आगच्छन्तु
शीघ्रम् आगच्छन्तु आगच्छन्तु इस् लोट् प्रथमपुरुष बहुवचनं नो चेत् विलम्बः भवति नो अगेन् अव्ययं चेत् अव्ययं विलम्बः इस् अगेन् प्रथमा एकवचनं भवति इस् लट् प्रथमा एकवचनं and then sarve vadati vadanti agataah boho agataah we have arrived agataah is again prathama bahuvachanam boho is sambodhana dvitiyah vayam sarve api smaha kila vayam सर्वनामपदं वयं विल् बि उत्तमपुरुष
no no bagini vibhakti vibhakti
bahuvachanam
bahuvachanam
prathama prathama
shabda prathama bahu prathama
asmad shabda and then sarve api api is avyayam sarve is prathama ekavachanam of sarva shabd right
sarve api smaha
smaha I don't know that word
maha syat syatam syuhu syaha syatam syata syam syava syama syama smaha kila smaha kila we are all here right
so smaha means even or something
no asti saha vadatu asti staha santi asi staha sta asi smaha asi smaha smaha right
so okay yeah. Astati
asti asti ityasya we are all here right
so asti so for that dhatu it is a uttama purusha bahuvachanam
let's yeah is it in our book I was going to make you read but it's not here I have to bring you that asti
I have the dhatu roopa manjari
okay it is what there bagini and the 199 page
oh it's there
yeah oh not okay sorry aham avam vayam is there not
not asti stah santi asti stah sta
yeah
asmi swah not there
not okay. The kriya yeah
only the vibhakti is seen okay oh what is the bagini asti asti va
sarve smaha kaha samshayah that one
No, bhagini, vayam sarvepi smaha kila.
Yeah,
we're going to read the asti, the dhatu asti, staha, santi.
I asti. Didn't find it. Asti, staha, santi.
Asi, asi, staha, stha, vadatu bhagini.
I'm trying to find my cheat sheet.
No, I can also find it here, Bhagini. Let me...
Okay, check. Asti, staha, santi. Asi, staha, stha. Asi, swaha, smaha.
Smaha, right?
Yes.
Uttama Purusha, Bahuvachanam, right?
Yes.
Ast dhatu.
And then, kila is avyayam again. So we are all here, right? Dviti I was saying, and then sarve bhavadanti smaha. Yes. So he's agreeing, and then kaha samshayah? Any questions? Kaha
no, why is kaha samshayah? What is the doubt?
Kaha
samshayah? Tritiya.
तृतीय परन्तु मित्राणि वयम् इदानीम् एकां नदीं तीर्त्वा अग्रे आगतवन्तः लैक् बट् फ्रेण्ड्स् लैक् नौ वी हेव् क्रास्ड् रिवर् एण्ड् केम् सो तत्र सर्वे अपि नदीं तीर्णवन्तः वा इति मम संशयः सो मै क्वेस् ऐ हेव् अ डौट् वेदर् the all of us cross the river then mitrani is a napumsakalingam prathama bahuvachanam and then idanim eva ekam nadim is a dvitiya ekavachanam teertva is a tva pratyaya agre agatavantaha is again prathama bahuvachanam तत्र सर्वे अपि नदीं सो दट् इस् द्वितीय एकवचनं नदीं तीर्णवन्तः दट् इस् प्रथमा बहुवचनं तीर्णवन्तः
सेण्टेन्स् यु डिन्ट् रीड् दट् यट् भगिनि पठतु तत्र सर्वेपि नदीं तीर्णवन्तः वा
तत्र सर्वे अपि नदीं तीर्णवन्तः वा इति मम संशयः सो मै क्वश्चन् इस् वेदर् वि आल् क्रास्ड् इट् द्वितीयः मम अपि सः एव संशयः ईवन् फार् मी इट् इस् दट् सेम् ऐ हाव् द सेम् क्वश्चन् चतुर्थः अतः एव गुरुः उक्तवान् अस्ति दट् इस् वै गुरु उक्तवान् अस्ति हि टोल्ड् अस् सो उक्तवान् इस् आल्सो प्रथम बहुवचन नो द्वितीय बहुवचनम्
उक्तवान् अस्ति गुरुः उक्तवान् रैट् प्रत्यय किं तवतु प्रत्यय गुरुः उक्तवान् अस्ति अतः एव गुरुः उक्तवान्
सो इवन् दो इट्स् तवतु प्रत्यय डु वी हाव् टु वि हाव् टु क्वालिफै इट् फार् विभक्ति इस् इट् लैक् द्वितीय बहुवचन नो इट्स्
नो भगिनि उक्तवान् इति एकवचनमेव खलु इट्स् नाट् लैक् रामः रामौ रामः रामं रामौ रामान् इट् डसन्ट् गो लैक् देट् भगिनि
ओके
यु नो देट् रैट् उक्तवान् उक्तवन्तौ उक्तवन्तः उक्तवन्तम् उक्तवन्तौ उक्तवन्तः दट्स् हौ इट् गोस् गुरुः उक्तवान्
सो अस्ति आप्शनल् हियर् सो गुरुः उक्तवान् विल् गिव् द उक्तवान् विल् बिकम् कैण्ड् आफ् लैक् द क्रियापदम्
या गुरुः उक्तवान् अस्ति गुरु हेस् सेड् रैट् ट्रान्स्लेटेड् इन् इङ्ग्लिश् दट्स् वै गुरु हेस् टोल्ड् आर् गुरु हेस् सेड् मध्ये मध्ये सर्वे सन्ति वा इति परिशीलयन्तु या केन् से उक्तवान् इस् मोर् लैक् अ पार्टिसिपल् भगिनि इन् इङ्ग्लिश् दे काल् दट् अ पार्टिसिपल् सो यु विल् एड् द अस्ति आल्सो गुरुः उक्तवान् इत्यपि समीचीनं बट् उक्तवान् अस्ति इस् बेटर् इस् बेटर् वे आफ़् सेयिङ्ग् इट् या अतः गुरुः एव उक्तवान् अस्ति मध्ये मध्ये सर्वे सन्ति वा इति परिशीलयन्तु इति सो उक्तवान् इति उक्तवत् इति प्रातिपदिकं भगिनी उक्तवान् इति प्रथमाविभक्ति एकवचनं गुरुः उक्तवान् तवान् उक्तवन्तौ उक्तवन्तः यु आल् हेव् स्टार्ट् डन् दट् रैट् स्त्रीलिङ्गपदं किम् उक्तवान् इति अस्ति चेत् स्त्रीलिङ्गपदम् उक्तवती भवती उक्तवती उक्तवती वुड् बी लैक् नदी शब्दवत् नदी नद्यौ नद्यः उक्तवती नदी नद्यौ उक्तवत्यौ उक्तवत्यः अतः एव गुरुः उक्तवान् अस्ति मध्ये मध्ये सर्वे सन्ति वा इति परिशीलयन्तु वदतु
लोट् प्रथमा बहुवचनं
परिशीलयन्तु सो
भगिनि तव तु प्रत्ययाः नपुंसकलिङ्गम् अस्ति खलु
नपुंसकलिङ्गरूपमपि अस्ति भगिनि उक्तवान् सो उक्तवत् एव भगिनि ऐ थिङ्क्
उक्तवत् ओके
या Let's check that, Bhagini. I am also suddenly, like, when you ask like that, I feel like, am I saying it right? I think Uktavat Eva, Bhagini.
Yeah, it is Uktavat Uktavati.
Nandini, Bhagini, I can't hear you. You are saying something.
Yeah, that Napunsak Lingam is
मित्रम् उक्तवत्
एण्ड् देन् द्विवचनम् इस् उक्तवती एण्ड् बहुवचनं उक्तवती
ओ ओके या या देट् डिपेण्ड्स् आन् नाट् फर् दिस् प्रत्यय उक्तवत् हेङ्गान् भगिनि या that depends, that the nakara coming in depends on so many, it depends on which dhatu it is from and all that. Very interesting.
Aam bhagini, uktavat, uktavati, uktavanti, iti bhavati.
Yeah, yeah, but the, for various things it doesn't go like that for every dhatu. Very interesting, bhagini. Anyway, we'll leave that discussion for the next class. I will check that and come. The four rules are very interesting, that Panini four rules, that 79, 80, 81 and all that. I remember the number, but I don't remember the rule exactly. The nakara. For the, then it will, tavatu pratyaya gachat, no, if it is gachat, that is takaranta napumsakalinga, shatranta, shatranta is what I remember. Okay, may not be for the tavatu, maybe I'm saying, I have to check that and tell you, bhagini. Yeah, shatranta rupam, those rules are for shatranta rupam. Okay. Yeah, well, let me not confuse that. अतः एव गुरुः उक्तवान् अस्ति मध्ये मध्ये सर्वे सन्ति वा इति परिशीलयन्तु इति. ओके,
पठामि वा भगिनि?
पठतु भगिनि.
पञ्चमः वदति, सत्यं दशजनाः अपि स्मः वा इति इदानीमेव परिशीलयामः. ओके, right now let us confirm that we are 10 of us are here. Shashtah vadati mitra
agre tavat tavat bhagini, dhanyavadah bhagini,
dhanyavadah
bhagini. Uktavan bhavati, now do you understand, or it's like tavatu pratyaya? Tavatu is a krit pratyaya bhagini. Any krit pratyaya addition to the dhatu would be declined, like would be like a noun. You have to take it like a like ramaha ramo ramaha, that kind.
Yeah, yeah.
Chatur pratyaya, shanach pratyaya, tap pratyaya, the tavatu pratyaya, everything would be like you have to take it like a, like they are all krit pratyayas. Krit, yeah. Pratyaya, you have to then make it like a noun, like make it like a namapadam. Namapadam iva, you have to do that. Uktavan. Okay. So
what happened was, in Sanskrit Bharati classes, before we were taught Lang Lakara, they taught us this pratyaya for past tense, for simple past tense. So it's like, so that's why I get confused whether it is Kriya Padam or
Namapadam. But then it goes like a Kriya Padam up, because Ataha Eva Guruhu Uktavan has said, right? So it's like a participle, which is more like, it serves like a visheshanam.
Yeah.
Any of these, the tavatu, the shatra, the shanach, this, all these would be like a visheshanam, bhagini.
Right. Visheshanam.
Yeah. Ataha eva guruhu uktavan asti. Right? Guruhu uktavan. Uktavan asti. Anyway.
Dhanyavada.
Okay. ओके, अग्रे वीणा भगिनी अस्ति वा? वीणा भगिनी नास्ति वा? अस्ति वा? नो प्राब्लम्. अग्रे पठतु भगिनी. षष्ठः.
मित्राणि, भवन्तः सर्वे पङ्क्तिरूपेण तिष्ठन्तु, अहं गणयामि, सर्वे तिष्ठन्ति, इदानीं गणयामि, एकं, द्वे, त्रीणि, चत्वारि, पञ्च, षट्, सप्त, अष्ट, नव. प्रथमः, सत्यं खलु? दशमः कुत्र गतः? सो षष्ठ वदति, आल् आफ् यू स्टाण्ड् इन् अ लैन् इन् अ रो, तिष्ठन्तु, श्लोकलकार बहुवचनं, पङ्क्तिरूपेण, पङ्क्तिरूपेण तृतीया भगिनी, पङ्क्तिरूपेण तिष्ठन्तु अहं गणयामि ऐ विल् औट् दट् इस् उत्तमपुरुष उत्तमपुरुष एकवचनं एकवचनम् अहं गणयामि सर्वे तिष्ठन्ति सर्वे बहुवचनं तिष्ठन्ति बहुवचनं प्रथमपुरुष बहुवचनं तिष्ठन्ति all of them stood idani ganayami so now I count so I start counting ekam dve treeni chatvari pancha shat sapta ashta nava prathama vadati satyam khalu dashama putra gatah so how come we are supposed to be 10 where is the 10th 10th person अगेन् हियर् गतः
गतः इष्ट प्रत्यय कुत्र गतः दशमः कुत्र गतः दशमः गतः इट् इस् कर्तरि बिकास् आफ् द गम् धातु बट् गम् धातु सम्टैम्स् केन् आल्सो कम् इन् The, where the karma would be indicated, but dashamaha atra, yeah, dashamaha gataha, iti
asti. Yeah, or could it be the panchama, the fifth vibhakti, gataha,
what is that?
Instead of taha pratyaya here, could it be taken as the fifth vibhakti?
No? Fifth vibhakti? Panchama oh, vibhakti. No, 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 Bhagini. No, what would be the panchami vibhakti? गतः गतौ गताः लैक् रामशब्दवत् रैट् सो पञ्चमी विभक्ति वुड् बि किं दट् इस् द यु मीन् दद्दितप्रत्यय वा तसल् तसल्
प्रत्यय
दशमः गतः भगिनि दशमः गतः वेर् डिड् द 10th पर्सन् गो रैट् कुत्र गतः yeah because he's only counting up to 9 right he's not counting okay. himself yeah the so story we all know so many times we have heard
yeah, but from the line right from the line probably he's trying to say that
no dashamaha okay. he's standing in the front right he's standing yeah, in the front okay. and he's counting okay. all the 9 he's right. only counting 9 yeah
yeah
so where is the 10th
प्रत्यय
सः प्रत्यय सप्रत्यय या दशमः गतः या सः कुत्र गतः सत्यं खलु दशमः कुत्र गतः सो नौ दे आर् आल् वरिड् अबौट् द 10th पर्सन् ओके अग्रे अपि पठतु भगिनि मम स्क्रीन् दृश्यते वा
द्वितीयः भोः भवान् गणना सम्यक् न जानाति आगच्छतु अहं गणयामि एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव नौ द सेकेण्ड् वन् सेस् योर् कौण्टिङ्ग् भवान् गणनां सम्यक् न जानाति बिकास् यु डोण्ट् नो टु कौण्ट् प्रापर्लि
गणनां वदतु
षष्टि सम्यक् न जानाति यु डोण्ट् नो टु कौण्ट् वेल् हौ इस् इट् यूस्ड् एस् षष्टि इन् वाट्
भवान् गणनां सम्यक् न जानाति गणनां न जानाति of the counts you don't know to count in that sense right gananam samyak na jana
dvitiya dvitiya vibhakti na bhavati va gananam iti ganana iti
gananam
gananam iti dvitiya ekavachana bhavati va
dvitiya ekavachanam you don't know to count gananam if it is shashti what would be that
what is the pratipadika
Yeah, that's what we are thinking. Gananam, if it is...
Ganana, ganana iti bhavati.
Gananam, gananam, ganana.
Srilinga, akaranta, srilinga bhavati. Gananam iti prathama, dvitiya vibhakti, ekavachana bhavati. गणनां न जानाति इत्युक्ते द्वितीयविभक्तिमध्ये एव अर्थः तु द्वितीयमध्ये आगच्छति
खलु.
डोण्ट् नो कौण्टिङ्ग्, यु डोण्ट् नो कौण्टिङ्ग्, इट् कम्स् इन् द्वितीय.
प्रातिपदिका, प्रातिपदिका इस् गणनम् अस्ति चेत्, गणनम् इति प्रातिपदिकं चेत् वाट् वुड् बि द षष्ठी गणनम्? लैक् लैक् न्यूटर् प्रातिपदिक, लैक् नपुंसकलिङ्गप्रातिपदिका अस्ति चेत् वाट् वुड् बि द गणनाम्?
खलु
गणना इति
स्त्रीलिङ्गशब्दस्य
केल्कुलेशन् एव
गणना इति.
No, but if it is gananam iti napumsakalingam nasti va? I thought it is napumsakalingam.
Bhagini, atra sankhya ganana, sankhya is also strilinga.
Ah, sankhya is strilinga. Oh, ganana is also strilinga.
Ganana is also strilinga.
Sattvate vava. Gananam iti nasti. So I thought gananam pratipatikam chet gananam iti shashti.
Gananam iti chet? गणनानाम् इति भवति षष्ठी विभक्तिबहुवचनरूपं.
गणनानां गणनं गणनं रामाणां राम रामाणां नाम एडेड् रैट् या नाम प्रत्यय
गणना
इत्यस्य कृते न एडेड् सो गणन इति
भगिनी इफ् इट् इस् नपुंसकलिङ्ग आसो
गणनां
गणनं गणने गणनानि गणनं गणने गणनानि अत्रापि द्वितीया एव भवति
द्वितीया परन्तु भगिनी ऐ एम् ट्रै टु सी वाट् इस् विल् बि द षष्ठी लैक् हरिणी भगिनी सेस् इट् कुड् बि गणन नाम रैट् रामाणां सो गणनानां सो इट् षष्ठी विभक्ति नास्ति द्वितीया विभक्ति एव गणना इति स्त्रीलिङ्गपदम् अस्ति चेत् आम् गणनां वुड् बि द्वितीया द्वितीया विभक्ति एकवचनं गणनाम् आं भगिनी धन्यवादः भोः भवान् गणनां सम्यक् न जानाति ऐ तत् षष्टि भवान् गणनां सम्यक् न जानाति डिड् बि से इट् रैट् इन् दि अदर् वन् वि सा सम् अदर् प्लेस् रैट् एतेषां नो नो एतेषां मन्तम् अति न ओके ओके देर् इट् इस् षष्टिः एव ओके डिस्कसिङ्ग् एतेषां वित् चान्दिनी भगिनी वित् चान्दिनी भगिनी रेड् तथापि एतेषां मन्दमतीनां वि सेड् इट् रैट् अट् दट् टैम् रैट् या या एतेषां मन्दमतीनां षष्टिः एव अत्र अत्र द्वितीया एव अस्तु धन्यवादः भवान् गणनां सम्यक् न जानाति आगच्छतु अहं गणयामि एकं
सत्यमेव खलु नवजनाः एव सन्ति एक्चुलि दट्स् रैट् नवजनाः एव सन्ति ओन्लि जनाः सन्ति सो बहुवचनं ओन्लि नैन् पीपल्
अग्रे
चतुर्थः तर्हि दशमः कः कः कुत्र गतः तर्हि यदि तर्हि
आम् आम् आम्
तर्हि देन् दशमः कः सो हू हू इस् सेकेण्ड् दशमः कः सः कुत्र गतः वेर् हेस् ही गोन्
फास्ट् gataka you can where did he go yeah where is he yeah kind of thing yeah
panchavah atra eva syat eteshu eva syat eteshu dashamah kah atra eva syat
no syat iti like vidhiling roopam right स्यात् स्याताम् स्युः या अत्र एव स्यात् हि शुड् बि हियर् दट् कैण्ड् आफ् अ
थिङ्ग्
एतेषु एव एतेषु एव स्यात्
भगिनि
भगिनि वदतु भगिनि
अहं शब्दकल्पद्रुमा मध्ये दृष्टवती मीनिङ्ग् गणना स्त्री एव भगिनि
ओके ओके
गणना टाप्रत्यय टाप्रत्यय स्त्री अस्ति गणना सङ्ख्या इति अस्ति अतः इत्येव दत्तमस्ति सङ्ख्यायाः गणना इति
ओके ओके या उत्तमं भगिनि यु आल् इमिडियेट्लि चेक् इन् टु आल् दिस्
अयं च परो वेति गणना लघुचेतसाम् इति उदाहरणमपि दत्तमस्ति अत्र अयं निजः परो वेत्ति
गणना विच् चाप्टर् इट् कम्स् इन् गीता ऐ थिङ्क् इट्स् इन् द 16th आर् द 17th भगिनि दट् आशुरी सम्पत्
भगिनि 17th
ओके एनिवे अस्तु धन्यवादः भगिनी उत्तमं गणना इति स्त्रीलिङ्ग स्त्रीलिङ्गपदम् अस्तु
एतेषु एव स्यात्
एतेषु एव स्यात् अमङ्ग् दीस् हि शुड् बि हियर् इन् दीस् पीपल् अमङ्ग् दीस् पीपल् एतेषु एव स्यात्
एतेषु दशमः कः सेटल् दशमः कः
अस्तु धन्यवादः भगिनि अग्रे हरिणी भगिनि पठतु भगिनि
पति कः प्रविश्य भोः कः कोलाहलः का समस्या भवतां पञ्चमः भगिनी एकैकवाक्यं पठित्वा अर्थं वदामि खलु
यथा भवती इष्टवती भगिनी डसन्ट् म्याटर् यु केन् रीड् एकं वाक्यं पठित्वा वदतु अथवा वाट् एवर् यु लैक् यु केन् रीड् वन् आर् टु टुगेदर् अण्ड् देन् लैक् इफ् यु
एकैकवाक्यं
ओके पठतु
अत्र एक पथिकः आगच्छति ट्रावेलर् और् सम्वन् रैट् सम्वन्
ट्रावेलिङ्ग्
आगच्छति ओहो ओहो सम्बोधनः कः कोलाहलः कः इति प्रथमाविभक्ति एकवचनं किं प्रातिपदिकं पुल्लिङ्गशब्द वाट् इस् दिस्
Kolahala is shouting and everything. Kolahala is shouting. Not the Kolahala.
Yes, shouting and all this chattering thing going on here. Kaha Kolahala. Ka samasya bhavatam. So, samasya iti Srilinga padam. Tena karanena ka iti atra bhavati. So, what is the matter? What is your bhavatam iti? षष्टिविभक्ति बहुवचनं सो भवत् शब्दस्य षष्टिविभक्ति बहुवचनरूपं सो
भवतां
समस्या का सो वाट् इस् द म्याटर् वाट् इस् युर् आल् आफ़् युर् समस्या आर् म्याटर्
लैक् क्लेश आर् सन्देह आर्
पञ्चमः भोः गुरोः आदेशानुसारं वयं दशजनाः रथोत्सवार्थम् उपस्थिताः इदानीं पश्यामः नवजना एव स्मः हा हन्त उच्चैः रोदिति पञ्चमः शिष्यः वदति गुरोः आदेशं ददाति तदनुसारं वयं दशजनाः सन्ति रथोत्सवं गच्छन् रथोत्सवं सो रथोत्सवार्थं प्रस्थिताः सो वि फार् द रथोत्सवं वि आल् वेन् सो ऐ वाण्ट् टु से इट् इन् संस्कृत रथोत्सवम् अहं सर्वे गतवन्तः गतवन्तः इदानीं प्रति आगच्छतः सो इदानीं पश्यामः नवजनाः एवं स्मः So idanim is now pashyamah is vayam pashyamah uttama purusha bahuvachanam idanim we are seeing navajana eva smaha navajana eva atra santi iti vadati so smaha iti prathama purusha bahuvachana rupam so vayam navajana eva smaha we are only nine right now ha hanta so it's like oh what a you know the kind of telling okay it's a bad thing kind of a thing so he starts uchchayi crying loudly uchchayi oditi
prastitaha what did you say beginning ratotsavartam prastitaha we are going
so we all ratotsava prasti oh going to the so we are not returning
not coming back no
I thought prastita said yes, I was wrong yeah prastita so we are all going to the for the
ratotsavam drashtum vayam like on the way like
vayam gachyamah okay
vayam gachyamah vayam prastitaah I guess there stitaah sitah stitau stitaah the ta pratyaya eva vayam prastitaah ratotsavartam prastitaah
prastitaah
yeah we started for the ratotsavartam जनाः प्रस्थिताः दशजनाः प्रस्थिताः चतुर्थ द्वितीय तृतीय चतुर्थ पञ्चम दिस् आर् आल् पूर्णप्रत्ययार्थ शब्दः यु नो रैट् पूर्णप्रत्ययार्थ ओके दे आर्डिनल् नम्बर्स् द फस्ट् सेकेण्ड् थर्ड् नाट् टु त्री बट् इट् इस् द फस्ट् सेकेण्ड् लैक् द्वितीय अध्याय पञ्चम अध्याय चतुर्थ अध्याय पूर्णप्रत्ययार्थशब्दात् रथोत्सवार्थं प्रस्थिताः ओके
पथिकः स्वगतं कथम् एवं वदति एषः मनसा एव सर्वान् गणयति प्रकाशः भोः सर्वे सन्ति खलु भगिनी स्वगतम् इस् इट् मीन्स् इन् इन् इस् ओन् मैण्ड् इस् इट्
स्वगतम् इन् इस् ओन् मैण्ड् थिङ्किङ्ग् टु हिम्सेल्फ् टेलिङ्ग् हिम्सेल्फ्
कथम् एव वदति एषः सो हौ हौ दे आर् सेयिङ्ग् दिस् सो कथम् इस्
एवं वदति
एषः कथम् एषः एवं वदति मनसा एव सर्वान् गणयति मनसः अत्र मनश्शब्दः तृतीया भवति एकवचनं सो इन् ऐ मीन् थ्रू ऐ मीन् वित् हिस् मैण्ड् इट्सेल्फ् एव सर्वान् गणयति सो सर्वान् अत्र द्वितीया विभक्ति बहुवचनं सो हि कौण्ट्स् एव्रि वन् मनसा एव इन् वित् हिस् मैण्ड् इट्सेल्फ् हि कौण्ट्स् एव्रि वन् प्रकाशः सो हि वदति भोः सर्वे सन्ति खलु सो सर्वे सन्ति आल् आफ् यू आर् देर् सर्वे सन्ति खलु इति वदति आफ्टर् कौण्टिङ्ग् दशजनाः सन्ति सो सर्वे सन्ति खलु इति वदति पञ्चमः नहि पश्यतु अहमेव गणयित्वा दर्शयामि एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव पश्यतु नवजनाः एव स्म दशम कुत्र गतः सो नहि सो पञ्चम नहि पश्यतु अहं गणयति अपि दर्शयतु सो हि सेस् ऐ विल् ओन्लि कौण्ट् यु केन् सी दर्शयामि सो गणयित्वा क्वा प्रत्यय एण्ड् दर्शयामि इस् दश् दातु उत्तमपुरुष एकवचनं चुरादिगण रैट् भगिनि
दर्शयामि
दर्शयामि चुरादिगण रैट् दृश् दातु
ऐ विल् निच् प्रत्यय इति भगिनि दर्शयामि
निच् कम्स् इट् इस् बिकम्स् लैक् ऐ विल् शो यू कैण्ड् आफ् अ थिङ्ग्
रैट्
so he counts 1 to 9 again सो पश्यतु लोट्लकार प्रथमोषे एकवचनं नवजनाः एव स्म जनाः सो वि नैन् आर् ओन्लि देर् स्मः इस् अगेन् अस् दातु उत्तमपुरुष बहुवचनं सो नवजनाः एव स्म वयं नवजनाः एव स्म वयम् अत्र लोपः दशम कुत्र गतः टेन्त् वन् वेर् डिडि कुत्र गतः वेर् डिडि गो सो पतितः हसन्
अस्तु भगिनि धन्यवादः भगिनि अग्रे पूर्णिमा भगिनि पूर्णिमा भगिनि पठतु गणैः पठतु भगिनि भवती वेगेन पठितवती शनैः
पतिकः हसन् हसन् मित्रः भवान् एव दशमः दशमस्य अन्वेषणं करोति सर्वे निष्कम्पाः तिष्ठन्ति निरूपकः नेपथ्ये वदति एतत्तु नाटकमस्ति अतः नेपथ्ये निरूपकः वदति पथिकः हसन् हसन् दशतन्त अस्ति मित्र भवान् एव दशमः भवान् एव दशमः अस्ति यः गणनां कुर्वन् अस्ति सः एव दशमः इति दशमस्य अन्वेषणं किमर्थं करोति सः एव दशमः अस्ति इति वदन्ति
यः गणनानि यः गणनां कुर्वन्ति सः एव दशमः इति पथिकः वदति हे यु आर् द टेन्त्
निरूपकः
निरूपकः
निरूपकः नाटकस्य निरूपणं कृत्वा नेपथ्ये भवति नाटकस्य निरूपणं
करोति नरेटर् 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 आर् अब्सर्वर्
नाटकस्य निरूपकः मित्राणि एषः एव लोकस्य
नेपथ्ये इस् स्क्रीन् भगिनि इन् द बेक्ग्रौण्ड् आर् इन् द बेक्ग्रौण्ड् बिहैण्ड् दस् बिहैण्ड् द सीन्स् आर् बिहैण्ड् द स्क्रीन् आर् बिहैण्ड् लैक् इन् द बेक्ग्रौण्ड् बिका दिस् इस् अ होल् नाटक रैट् इट् इस् डन् अस् अ नाटक सो देन् दे विल् हाव् द नरेटर् दट्स् द निरूपकः द अब्सर्वर् निरूपकः इस् द नरेटर् आर् दि अब्सर्वर् सो नौ द पथिकः शोस् वे द टेन्त् मेनस् द वन् हू यू आर् कौण्टिङ्ग् यू आर् द वन् यः भवान् एव दशमः यः दशमस्य अन्वेषणं करोति द वन् हू इस् लुकिङ्ग् फार् द टेन्त् रैट् यः अन्वेषणं करोति यः दशमस्य अन्वेषणं करोति सः यु भवान्
सः एव दशमः
भवान् एव दशमः सो हि दे आर् नाट् इन्क्लूडिङ्ग् देम् सेल्स् बट् दे आर् आल् कौण्टिङ्ग् दि अदर्स् अण्ड् देन् वण्डरिङ्ग् वे द टेन्त् मेनर्स् हसन् हसन् इति शत्रन्तप्रत्यय
निरूपकः मित्राणि एषः एव लोकस्य व्यवहारः एवमेव वयम् आत्मानः अन्वेषणं कुर्वन्तः भवामः मित्राणि मित्रमित्रे मित्राणि बहुवचन एषः एव लोकस्य व्यवहारः तथा एव भवन्ति जनाः तथा एव कुर्वन्ति अस्माकं अन्वेषणम् अस्माकं मनसि किम् अस्ति तद्वयं न पश्यामः अन्यत्र कुत्रापि किम् अस्ति इति एव वयं पश्यामः इति एवमेव आत्मनः अन्वेषणं वयं न कुर्मः विषयः देहः इन्द्रियाणि प्राणः मनः बुद्धिः अहङ्कारः चित्तम् अज्ञानम् इत्येतेषु अत्यतमः अन्यतमः सारि अन्यतमः एव आत्मा स्यात् इति चिन्तयन्तः वयं तत्र एव तस्य अन्वेषणं कुर्मः आत्मा अपि अत्र एव अस्ति अहम् एतत् सर्वं गणनं कुर्मः विषयः देवः देहः इन्द्रियाणि प्राणाः मनः बुद्धिः अहङ्कारः चित्तं ज्ञानम् एतेषां गणनं कुर्मः यत् अस्माभिः न दृश्यते अन्तरङ्गे यदस्ति तत् वयं न पश्यामः. अतः आत्मा आत्मा आत्मनि एव आत्मा एव आत्मनं पश्येत् इति पश्यामः इति वदति अन्वेषणं कुर्वः. परन्तु वयं जानीमः यत् यः आत्मनिवेषणं करोति सः एव आत्मा, सः एव परमं ब्रह्म.
उद्धरेतात् आत्मना आत्मानम् उद्धरेतात्मनात्मानम् आत्मानं न अवसादयेत्. आत्मैव ह्यात्मनो बन्धुः, आत्मैव रिपुरात्मनः. आत्मा एव युवर् ओन्, यु आर् युवर् ओन् बेस्ट् फ्रेण्ड्, यु आर् युवर् ओन् एनिमि. If I don't encourage myself, I am my own enemy. I have to encourage myself. I have to push myself. I have to see. So this is nicely given. See, they have vishayaha dehaha indriyani pranaha pranaha manaha buddhihi akankaraha chittam ajnanam. These are the nine. So we are looking for the 10th, the self, atma. Atma kutra asti iti vayam vayam na janimaha aham eva atma iti. The one who is looking for yaha anveshanam karoti saha eva atma iti. So vishayaha dehaha indriyani pranaha manaha buddhihi ahankaraha chittam ajnanam ite esham krite eva ite tesham madhye vayam dashamaha atmana atma api vayam anveshanam kurvanti sma. Parantu yaha anveshanam karoti saha eva atma iti aham na अहं न जानामि. ब्यूटिफुल्लि डन् रैट्. एषः एव लोकस्य व्यवहारः. एवमेव वयम् आत्मनः अन्वेषणं कुर्वन्तः भवामः. विषयः देहः इन्द्रियाणि प्राणाः मनः बुद्धि अहङ्कारः चित्तम् अज्ञानं. वेरि नैस्. विषयः औट्सैड् देहः, दट् इस् आल्वेस् टेकन् इस् आत्मा. इन्द्रियाणि प्राणाः मनः बुद्धिः अहङ्कारः चित्तम् अज्ञानं. वेरि नैस्. इत्येतेषु अन्यतमः, अन्यतमः मीन्स् वन् आफ् दीस् एव आत्मा स्यात् इति चिन्तयन्तः वयं चिन्तयन्तः किं चिन्तवन्तः? अमङ्ग् दीस् अन्यतमः एव आत्मा, वन् आफ् दीस् इस् द आत्मा इति वयं चिन्तयन्तः तत्र एव तस्य अन्वेषणं कुर्मः. परन्तु वयं न जानीमः यत् वि डोण्ट् नो देट् यः अन्वेषणं करोति सः एव आत्मा, सः एव परमं ब्रह्म. वेरि नैस्. अस्तु, मे बी वि शुड् स्टाप् हियर् भगिनी. I have to leave for leave in a hurry, so we'll stop this here and then we'll do all the next one in the other one. But Bhagini, where is that Gita sloka that we were saying, that gananam? I wanted to see that sloka before finishing the class. Which sloka was that? I wanted to immediately check that. पूर्णिमा भगिनी अस्ति वा?
भगिनी अहम् अस्मि. अहं निजं परोवेति गणनां लघुचेतसाम्.
वेर् इस् देट्? अहं निज परोवेति गणनां लघुचेतसाम्. ओके, अहं निज परोवेति गणनां लघुचेतसाम्. लेट् मी लुक् भगिनी. अहं निज परोवेति गणनां, मे बि ऐ शुड् लुक् फर् गणनां लघुचेतसाम्. इफ् ऐ अब्सल्यूट्लि डोण्ट् नो भगिनी, देन् ऐ लुक् फर् मै भाष्यं बुक्, शङ्करभाष्यं बुक्. इन् द बेक् दे वुड् गिव् यू आल् द वर्ड्स् इन् शङ्करभाष्यं मध्ये गणनां न, बट् अट् द एण्ड् यू विल् सी द इण्डेक्स् आफ् आल् द वर्ड्स् भगिनी. So if you absolutely don't know, immediately if you don't get it where it is, then I generally go to the Bhashyam book and look at the index of it in the back. अकारादिवर्णानुक्रमः इति अस्ति खलु गणनां गकारः when you look for that if you have the bhashyam book that is wonderful bhagini I have the bhashyam book let me see gatih gata 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 nakat gananam iti atra nasti why is it not given there takarah before the takara should be there. गणनां लघु चेतसाम् ऐ हेव् टु नो फिगर् औट् यु ऐ वाण्टेड् टु फिनिश् द क्लास् फैव् मिनिट्स् ओर्लि एनिवे चेतसा इट्स् देर् इन् ओ दट्स् इन् एय्त् चाप्टर् एय्त् वर्स् इस् इन् चेतसा इस् देर् बट् एय्टीन्त् चाप्टर् लेट्स् एय्त् चाप्टर् एय्त् वर्स् लुक् अट् दट् इफ् यु हेव् अ बुक् Bhagavad Gita book, look at the 8th chapter, 8th verse. I don't know if it is Chetasam or Chetasa. Abhyasa yoga yuktena Chetasa nanya gamina paramam. No, no, that's not Chetasam. That's not the verse that we are looking for. Chetasam iti astikalu. Chetasa, 18th chapter, 57. Maybe it's in the 18th chapter.
Google says it's from some Upanishad.
Which Upanishad?
Yeah, Maha Upanishad.
Maha Narayana Upanishad?
I pasted that in a chat, Bahini. That it says it's from some Maha Upanishad.
Okay. Yeah. You know, few Upanishads statements, but not... Suddenly it came, I thought it is Gita.
This verse of Maha Upanishad is engraved in the entrance hall of some place.
Let me anyway finish this. Where was, what did I say? 18th chapter, 57th verse. See the 57th verse? Chetasan Sarvakarmani Maisan not that. Chetasa Sarvakarmani. That's what that's not what we are looking for.
Maybe Upanishad Deva Bhagini.
Could be. It's, say the sentence again. How come it came flowing? Say that again.
I am Nijam Paroveti. All people will think like that.
Subhashita Mosha, we have learned that.
Small people will think like that, you see.
No, Bhagini, not Subhashitam. I know very few Subhashitas, but I have heard lot of Upanishads.
Sukta.
And then this Chetasa also...
Udara Charita Nanto, Bhagini. उदारचरितानां तु वसुधैव
कुटुम्बकम्
कम्प्लीटेड् नौ अयं निजं परोवेति गणना लघु चेतसा उदारचरितानां तु वसुधैव कुटुम्बकम्
या लैक् दे से इट् इस् इन् वन् आफ़् द उपनिषद् आल्सो इट् कम्स् भगिनि बट् ऐ डोण्ट् नो वेर् इट् इस् ऐ थिङ्क् कुड् बि कठोपनिषद् but then they were saying maha upanishad something but it could be maha narayana upanishad I don't know anyway so we'll find out more about it but thank you I learnt for the gadana today anyway hang on beginning 72 kachite Let me stop the recording. Stop this.